शान्तं योगीन्द्रवर्यं द्विजकुलतिलकं श्रोत्रियं ब्रह्मनिष्ठं दत्तात्रेयं स्मरन्तं जनहितनिरतम् सच्चिदानन्दमग्नम् सिद्धं रेवातटस्थं निजपररहितं नित्यमत्तावधूतम्